ओम नमो भगवते वासुदेवाय। अथैकविंशोऽध्यायः। मैत्रेय उवाच, मौक्तिकैकुसुमस्रग्भिर्दुकूलैः स्वर्णतोरणैः महासुरभिर्धूपैर्मण्डितं तत्र तत्र वै चन्दनागुरुतोयार्द्ररथ्या चत्वरमार्गवत् पुष्पाक्षतफलैस्तोक्मैर्लाजैरर्चिर्भिरर्चितं सवृन्दैकदलीस्तम्भैः पूगपोतैः परिष्कृतम् तरुपल्लवमालाभिः सर्वतः समलङ्कृतम् प्रजास्तम् दीपबलिभिः सम्भृताशेषमङ्गलैः अभियुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् विवेशभवनम् वीरः स्तूयमानो गतस्मयः। पूजितः पूजयामास तत्र तत्र महायशाः पौराञ्जानपदांस्तांस्तान् प्रीतः प्रियवरप्रदः स एवमादीन्यनवद्य चेष्टितः कर्माणि भूयांसि महान् महत्तमः कुर्वन् ससासावनिमण्डलम् यशः स्फीतम् निधायारुरुहे परम्पदम्। सूत उवाच, तदादिराजस्य यशो विजृम्भितम् गुणैरशेषैर्गुणवत्सभाजितम् क्षत्ता महाभागवतः सदस्पते कौशारविम् प्राह गृणन्तमर्चयन्। विदुर उवाच, सोऽपि सिक्तः पृथुर्विप्रैर्लब्धाशेषसुरार्हणः बिभ्रत्स वैष्णवम् तेजो बहवोर्याभ्याम् ददोहकाम् कोऽन्वस्य कीर्तिम् न शृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः लोकाः सपाला उपजीवन्ति काममद्यापि तन्मे वद कर्म शुद्धम्। मैत्रेय उवाच, गङ्गायमुनयोर्नद्योरन्तरा क्षेत्रमावसन् आरब्धानेव बुभुजे भोगान् पुण्यजिहासया सर्वत्रा स्खलिता देशः सप्तद्वीपैकदण्डधृक् अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः एकदासीन् महासत्र दीक्षा तत्र दिवौकसाम् समाजो ब्रह्मर्षीणाम् च राजर्षीणाम् च सत्तम तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः उत्थितः सदसो मध्ये ताराणामुडुराडिव प्रांशुः पीनायत भुजो गौरः कञ्जारुणे क्षणः सुनासः सुमुखः सौम्य पीनांसः सुद्विजस्मितः व्यूढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदरः आवर्तनाभिरोजस्वी काञ्चनोरुदग्रपात् सूक्ष्मवक्रासितस्निग्ध मूर्धजः कम्बुकन्धरः महाधने दुकूलाग्र्ये परिधायोपवीय च व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषणः कृष्णाजिनधरः श्रीमान् कुशपाणिकृतोचितः शिशिरस्निग्धताराक्षः समैक्षत समन्ततः ऊचिवानिदमुर्वीशः सदा संहर्षयन्निव चारुचित्रपदम् स्लक्ष्णम् मृष्टम् गूढमविक्लवम् सर्वेषामुपकारार्थम् तदा अनुवदन्निव राजोवाच, सभ्या शृणुत भद्रम् वः साधवो य इहागताः सत्सु जिज्ञासुभिर्धर्ममावेद्यम् स्वमनीषितम् अहम् दण्डधरो राजा प्रजानामिह योजितः रक्षिता वृत्तिदस्वेषु सेतुसु स्थापिता पृथक् तस्य मे तदनुष्ठानाद्यानाहुर्ब्रह्मवादिनः लोकास्युः कामसन्दोहायस्य तु श्रुतिदिष्टदृक् य उद्धरेत्करम् राजा प्रजाधर्मेष्वशिक्षयन् प्रजानाम् शमलम् भुङ्क्ते भगम् च स्वम् जहाति सः तत्प्रजाभर्तृपिण्डार्थम् स्वार्थमेवानसूयवः कुरुताधोक्सज धियस्तर्हि मेऽनुग्रहः कृतः यूयम् तदनुमोदध्वम् पितृदेवर्षयो मलाः कर्तुशास्तुरनुज्ञातुस्तुल्यम् यत्प्रेत्य तत्फलम् अस्ति यज्ञपतिर्नाम केषाञ्चिदर्ह सत्तमाः इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः प्रियव्रतस्य राजर्षे रङ्गस्यास्मत्पितुः पितुः ईदृशानामथान्येषामजस्य च भवस्य च प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता दौहित्रादीनृते मृत्योः शोच्यान् धर्मविमोहितान् वर्गस्वर्गापवर्गाणाम् प्रायेणैकात्म्यहेतुना यत्पादसेवाभिरुचिस्तपस्विनामशेषजन्मोपजितम् मलम् धियः सद्यक्षिणोत्यन्वहमेधति सति यथा पदाङ्गुष्ठविनिःसृतासरित् विनिर्धुताशेषमनोमलप्पुमानसङ्गविज्ञानविशेषवीर्यवान् यदङ्घ्रिमूले कृतकेतनः पुनर्न संसृतिम् क्लेशवहाम् प्रपद्यते तमेव यूयम् भजतात्मवृत्तिभिर्मनोवचः कायगुणैः स्वकर्मभिः अमायिनः कामदुघाङ्घ्रिपङ्कजम् यथाधिकारावसितार्थसिद्धयः असा विहानेकगुणो गुणोध्वर पृथग्विधद्रव्यगुणक्रियोक्तिभिः सम्पद्यतेऽर्थाशयलिङ्गनामभिर्विशुद्धविज्ञानघनस्वरूपतः प्रधानकालाशयधर्मसङ्ग्रहे शरीर एष प्रतिपद्यचेतनाम् क्रियाफलत्वेन विभुर्विभाव्यते यथा नलोदारुषु तद्गुणात्मकः अहो ममामि वितरन्त्यनुग्रहम् हरिम् गुरुम् यज्ञभुजामधीश्वरम् स्वधर्मयोगेन यजन्ति मामका निरन्तरम् क्षोणितले दृढव्रताः मा जातु तेज प्रभवेन्महर्तिभिः स्थितिक्षया तपसा विद्यया च देदीप्यमाने जितदेवतानाम् कुले स्वयम् राजकुलाद्विजानाम् ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यम् हरिर्यच्चरणाभिवन्दनात् अवापलक्ष्मीमनपायिनीम् यशो जगत्पवित्रम् च महत्तमाग्रणीः यत्सेवया शेषगुहाशयः स्वराट् विप्रप्रियस्तुष्यति काममीश्वरः तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्मकुलम् निषेव्यताम् पुमान् लभेत नतिवेलमात्मनः प्रसीदतोऽत्यन्तसमम् स्वतः स्वयम् यन्नित्यसम्बन्धनिषेवया ततः परम् किमत्रास्ति मुखम् हविर्भुजाम् अश्नात्यनन्त खलु तत्त्वकोविदैः श्रद्धाहुतम् यन्मुखयुज्यनामभिः न वै तथा चेतनया बहिष्कृते हुतासने पारमहंस्य पर्यगुः यद्ब्रह्म नित्यम् विरजम् सनातनम् श्रद्धा तपो मङ्गलमौन संयमैः समाधिना बिभ्रतिहार्तदृष्टये यत्रेदमादर्शयैवावभासते तेषामहम् पादसरोजरेणुमार्यावहेयाधिकिरीटमायुः यम् नित्यदा बिभ्रतासु पापम् नश्यत्यमुम् सर्वगुणा भजन्ति गुणायनम् शीलधनम् कृतज्ञम् वृद्धाश्रयम् संवृणतेऽनुसम्पदः प्रसीदताम् ब्रह्मकुलम् गवाम् च जनार्दनस्यानुचरश्च मह्यम् मैत्रेय उवाच इति ब्रुवाणम् द्रिपतिम् पितृदेवद्विजातयः तुष्टुवर्रिष्टमनसः साधुवादेन साधवः पुत्रेण जयते लोकानिति सत्यवती श्रुतिः ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः हिरण्यकशिपुश्चापि भगवन्निन्दयातमः विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः वीरवर्यपितः पृथ्व्याः समा सञ्जीव शाश्वतीः यस्ये दृश्यत्युते भक्ति सर्वलोकैकभर्तरि अहो वयम् यद्यपवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः य उत्तमश्लोकतमस्य विष्णोर्ब्रह्मण्यदेवस्य कथाम् व्यनक्ति नात्यद्भुतमिदम् नाथ तवा जीव्यानुशासनम् प्रजानुरागो महताम् प्रकृतिः करुणात्मनाम् अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो भ्राम्यताम् नष्टदृष्टीनाम् कर्मभिर्दैव सङ्गितैः नमो विवृद्धसत्त्वाय पुरुषाय महीयसे यो ब्रह्मक्षत्रमाविश्य बिभर्तीदम् स्वतेजसा ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे एकविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।